प्राचेतसस्तु भगवन् अपरोहि दक्षः त्वत्सेवनं व्यधित सर्गविवृद्धिकामः आविर्बभूविथ तदा लसदष्टबाहुः तस्मै वरं दधिथ तां च वधूम् असिग्नीं तस्यात्मजास्तु अयुतमीश पुनः सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः नैकत्र वासं ऋषये स मुमोच शापं भक्तोत्तमस्तु ऋषिः अनुग्रहमेव मेने षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रसूनुः अथ तस्य स विश्वरूपः त्वत्स्तोत्रवर्मितम् अजापयत् इन्द्रमाजौ देवा त्वदीयमहिमा खलु सर्वजैत्रः प्राक्षूरसेन विषये किल चित्रकेतुः पुत्राग्रहीः नृपतिः अङ्गिरसः प्रभावात् लब्ध्वैकपुत्रम् अथ तत्र हते सपत्नीसङ्घैः अमुह्यदवशः तव माययासौ तं नारदस्तु सममङ्गिरसा दयाळुः सम्प्राप्य तावत् उपदर्श्य सुतस्य जीवं कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्ता स्तोत्रञ्च मन्त्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् विद्याधराधिपतितां सहि सप्तरात्रे लब्ध्वापि अकुण्ठमतिः अन्वभजत् भवन्तं तस्मै मृणालधवळेन सहस्रशीर्ष्णा रूपेण भद्दनुतिसिद्धगणावृतेन प्रादुर्भवन् अचिरतो नुतिभिः प्रसन्नः दत्त्वा आत्मतत्त्वमनुगृह्य तिरोदधाथ त्वद्भक्तमौलिः अथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमनाः भुवनेषु कामं सङ्गापयन् गुणगणं तव सुन्दरीभिः सङ्गातिरेकरहितो ललितं चचार अत्यन्तसङ्गविलयाय भवत्प्रणुन्नः नूनं सरूप्यगिरिमाप्य महत्समाजे निःशङ्कम् अङ्ककृतवल्लभम् अङ्गजारिं तं शङ्करं परिहसन् उमयाभिषेपे निःसम्भ्रमस्तु अयम् अयाचितशापमोक्षः वृत्रासुरत्वम् उपगम्य सुरेन्द्रयोधी भक्त्या आत्मतत्त्वकथनैः समरे विचित्रं शत्रोरपि भ्रमम् अपास्य गतः पदं ते त्वत्सेवनेन दितिः इन्द्रवधोद्यतापि तान् प्रत्युत इन्द्रसुहृदो मरुतोऽभिलेभे दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वम् अवमां पवनालयेशा ॐ तत्सदिति श्रीमन्नारायणीये त्रयोविंशं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।